एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रतिनिधि सभया यौन हिंसा विरोधीनाम् कतिचित् अधिनियमानाम् एतद् विक्रम वर्षीयम् संशोधन विधेयकम् पारितकृतम् वर्तते। विधिन्याय संसदीय विषय मन्त्रिणा गोविन्द प्रसाद शर्मा कोइराला विधेयन प्रस्तुतम् विधिन्याय मानवाधिकार समितेः प्रतिवेदन सहितम् विधेयकमिदम् सर्वसम्मत्या पारितम् अस्ति। विधेयकम् आधृत्य भाषमाणाः सांसदाः पुष्पा भूषालः, डा डीला संग्रौला, डा बिन्दा पाण्डे, गोमा देवकोटा, सत्या पहाड़ी, अञ्जना कुमारी विशुङ्खे, झपट बहादुर रावलः, प्रेम सुबालः, रंगमती साई च केवलम् दण्डनम् समय सीमां च वर्धयित्वा एव यौनजन्य हिंसायाः घटनाः न्यूनाः न भवन्तीति तर्कयन्तः अन्तर्राष्ट्रिय विधीन् अधीत्य नवीन वैधानिक व्यवस्थां विधातुं बलं प्रादुः। विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् विधिन्याय संसदीय विषय मन्त्री गोविन्द प्रसाद शर्मा कोइराला सर्वकारः न्यायस्य पक्ष स्थिति समस्पष्टयत्। उपवेशे सभामुखः अग्निप्रसाद सापकोटा शून्य समये सांसदैः उत्थापितेषु विषयेषु सम्बद्ध मन्त्रिणां ध्यानाकर्षणाय निरदिशत्। उपवेशे सांसदैः वैदेशिक मुद्राणां संचितेः क्षयस्य देशे मार्गतायाः वर्धनस्य च अवस्थायां नेपाल प्रहरिणे आयुध क्रयणाय अनुमतिर्न प्रदातव्येति सामयिक विषयेषु सर्वकारस्य ध्यानम् आकर्षितम् आसीत्। उपवेशेन गृहमन्त्रिणा बालकृष्ण खाणे इत्यनेन प्रस्तुतम् राज्यव्यवस्था सुशासन समितेः प्रतिवेदनेन सहितम् एतद् वैक्रमार्दम् नेपाल प्रहरी प्रदेश प्रहरी कार्य संचालन सुपर्यवेक्षण समन्वय प्रथम संशोधन विधेयकम् पारितीकृतम् वर्तते। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समितेः उपवेशे उपसभापतिना पूर्णबहादुर खड्का विधेयना स्थानीय स्तर निर्वाचन परिचालन समितेः प्रवक्त्रा डा प्रकाश शरण महत इत्यनेन प्रचार प्रसार समितेश्च प्रतिवेदने प्रस्तुते स्तः। सानेपावर्तिनी दलस्य केन्द्रीय कार्यालये ह्या उपविष्टे उपवेशे महामन्त्री गगन कुमार थापा उपवेशस्य प्रस्तावान् प्रस्तोत। उपवेशस्य प्रथमे दिने ह्य प्रदेश सभापतयः स्वीय धारणान् उपस्थापयन्। उपवेशः अद्य दिवा एकवादने पुनर्वसतीति नेपाली कांग्रेस दलेन ह्य प्रकाशितायम् विज्ञप्तौ ज्ञापितम् वर्तते। नेकपा माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन सह नेपाल भ्रमणे विद्यमानः सीपीसी नाम्नः चीनदेशीय कम्युनिष्ट पार्टी दलस्य विदेश विभाग प्रमुख ल्यू जियान चाओ शिष्टाचार मेलवार्ताम् व्यदधात्। चतुर्दिवसीय नेपाल भ्रमणे विद्यमानः विदेश विभाग प्रमुख ल्यू ह्य अपराह्ने खुमल टारा वर्तिनम् अध्यक्षस्य दाहालस्य निवासम् प्राप्य मेलवार्ताम् अकरोत्। मेलवार्तायाम् माओवादी केन्द्रस्य वरिष्ठ नेता नारायण काजी श्रेष्ठः, नेतारः कृष्णबहादुर महरा, वर्षमान पुन, देवप्रसाद गुरूङ, नेत्री पम्फा भूषालश्च सहभागिनः आसन्। मेलवार्तायाम् माओवादी केन्द्रस्य चीनदेशीय कम्युनिष्ट दलस्य च सम्बन्धस्य विषये विमृष्टम् आसीत्। ऊर्जो जलस्रोत सिंचन मन्त्री पम्फा भूषाल नेपाल भ्रमणे विद्यमानः चीनदेशीय कम्युनिष्ट पार्टी दलस्य विदेश विभाग प्रमुख ल्यू जियान चाओ च संयुक्त रूपेण ह्य स्माइलिङ चिल्ड्रेन नामिकाम् स्मृता हाँस बाल परियोजनाम् आरभताम्। काष्ठमण्डपस्य शान्ति निकुञ्ज माध्यमिक विद्यालयस्य विद्यार्थिनो भोजयित्वा इमौ परियोजनायाः प्रारम्भम् अकुरुताम्। तदवसरे मन्त्री भूषाल अवोचत् संघीय लोकतान्त्रिक गणतन्त्रस्य स्थापनेन नेपाल समृद्धिर्मार्गे अग्रे वर्धितो वर्तते। असौ अगदत् नेपालस्य समृद्धेः यात्रायै गतिम् प्रदातुम् प्रतिवेशिनः चीनदेशस्य प्राविधिकः अनुभवः आर्थिक सहयोगश्च आवश्यकौ भवतः। ह्य एव चीनदेशीय कम्युनिष्ट दलस्य विदेश विभाग प्रमुख ल्यू जियन चाओ काष्ठमण्डपस्य गोकर्णेश्वर नगरपालिकायाः प्रथमवडा क्षेत्रस्थितम् बीपी संग्रहालयम् निरीक्षत। विदेश विभाग प्रमुख ल्यू बीपी कोइराला विधेयन दीर्घकालम् यावत् यापित कारावासीय जीवनस्य बीपी संग्रहालयस्य निरीक्षणेन सह संग्रहालयस्य परिसरे वृक्षारोपणम् च व्यदधात्। तदवसरे असौ भूकम्पोत्तरम् संग्रहालयस्य पुनर्निर्माणस्य नेपाल चीनदेशयोः मैत्री सम्बन्धस्य बीपी कोइराला विधस्य योगदानस्य च स्मरणेन सह संग्रहालयस्य आगन्तुक पुस्तिकायाम् हस्ताक्षरणम् व्यदधात्। नेपाल कम्युनिष्ट पार्टी एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपाल गदती आगामी निर्वाचनात पूर्वम केनापी दलेन सह एकीकरण न विधास्यते। समाजवादी प्रेस संगठन नेपालस्य कैलाली शाखया ह्य धनगढ़ी स्थाने आयोजिते पत्रकार सम्मेलने अध्यक्षो नेपाल स्वस्य दलम सिद्धान्तम विचारम च प्रति समर्पितम दलमस्तीति अवोचत। सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च ज्ञानेन्द्र बहादुर कार्की कथयति वर्तमान सर्वकारेण केपी नागरिकाः नागरिकतातो वञ्चिताः न क्रियन्ते। नेपाली कांग्रेस दलस्य सुनसरी जनपदस्य चतुर्थ क्षेत्र शाखया सुनसरी जनपदस्य कोशी ग्रामपालिकायाः तृतीयवडा क्षेत्रे आयोजिते कार्यक्रमे मन्त्री कार्की नागरिकतायाः अभावस्य कारणेन युवानः स्वास्थ्य शिक्षा लोकसेवा विभिन्न सर्वकारीय सेवाभ्यश्च वञ्चिताः सन्तीति चर्चयन् वर्धमान सर्वकारेण इमा सर्वाः समस्याः सहमतेः आधारेण शीघ्रमेव समाधास्यन्ते इति विश्वासम् अदापयत्। मन्त्री कार्की नागरिकतायाः कारणेन उत्पन्नाः समस्याः समाधातुं वर्तमान सर्वकारेण नूतनं नागरिकता विधेयकं संघीय संसदि पञ्जीकारितमस्ति। नूतन विधेयकं शीघ्रमेव पारिति भविष्यतीति च अबोधयत्। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली राजनीतिक दलानि अलोकप्रियाणि विधातुम् अपेक्षितमस्तीति चर्चयन् निगदति। दलानां मध्ये अस्वस्था प्रतिस्पर्धा वर्धिता वर्तते। ललितपुरे ह्य सम्पादकैः सह आयोजितायाम् अन्तरक्रियायाम् अध्यक्ष ओली अभाषत संघीयतायां जनतायै सेवा सौविध्य दायिन्यं प्रणाल्यं सत्यमपि सम्प्रति एतस्याः क्रियान्वयनम् अनुचितरीत्या विहितं वर्तते। सम्पादकानां प्रश्नान् उत्तरेण अध्यक्षा ओली अकथयत् उत्पादन वृद्धये निवेशन वर्धनम् आवश्यकं सदपि ईदृशी अवस्था सम्प्रति नास्ति इत्यतः सर्वै अत्र गभीरैर्भाव्यम्। श्रमवृत्ति सामाजिक सुरक्षा मन्त्री शेरबहादुर कुंवर कथयति वैदेशिक वृत्त्युपार्जनाय गतानां नेपालीनां सुरक्षां प्रति सर्वकार गभीरो वर्तते। कैलाली जनपदीयेन समाजवादी प्रेस संगठनेन ह्यो धनगढ़ी स्थाने आयोजिते पत्रकार सम्मेलने असौ अगदत् वैदेशिक वृत्त्युपार्जनं व्यवस्थितं सुरक्षितं च विधातुं सर्वकार क्रियाशीलो वर्तते। नेपाल राष्ट्रकोषेण ह्य सार्वजनिकृतस्य वर्तमानार्थिक वर्षस्य एकादश मासानां विवरणस्य अनुसारेण विप्रेषण प्रवाहे प्रतिशतं 10.8% वृद्धिः सम्भूतास्ति। समीक्षावधौ वैदेशिक वृत्त्युपार्जनाय अन्तिम समस्वीकृतिं गृह्णतां नेपालीनां संख्या उल्लेख्य रूपेण वर्धितास्ति। केन्द्रीय कोषस्य अनुसारेण अस्मिन् अवधौ समग्रत लक्षत्रयेण 13,000 7,60,103 च जनैः समस्वीकृतेः गृहीतास्ति। गत ज्येष्ठ मासस्य वार्षिक बिन्दुगता उपभोक्तृ मुद्रास्फीति प्रतिशतं 10.5% वर्तते। गतवर्षे ज्येष्ठ मासावधे मुद्रास्फीति प्रतिशतं 10.94% आसीत्। कोषस्य अनुसारेण गत ज्येष्ठ मासान्तं यावत् नवाब्जानां 45,000 कोटीनां च अमेरिका देशीय डलर मुद्राणां वैदेशिक मुद्रा संचिति वर्तते। ह्य आराष्टम 68,100 जनेषु कोरोना विषाणो संक्रमणं पुष्टिभूतं वर्तते। 20,100 निदर्शनेषु परीक्षितेषु सत्सु 68,100 जनेषु संक्रमणं दृष्टमिति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। सक्रिय संक्रान्तानां जनानां संख्या सम्प्रति 70,700 वर्तते। एतेषु काष्ठमण्डपे एव 102 सक्रिय संक्रान्ताः जनाः सन्तीति मन्त्रालयोऽसौ सूचयति। गण्डकी प्रदेश सर्वकारेण गण्डकी रत्न सम्मान महावीर पुन इत्यस्मै प्रदत्तो वर्तते। प्रदेश प्रमुख पृथ्वीमान गुरूङ ह्य पोखरायाम् आयोजिते कार्यक्रमे पुन इत्यमुम् सममानयत। कार्यक्रमे प्रदेश प्रमुख गुरूङ मुख्यमन्त्री कृष्णचन्द्र नेपाली पोखरेलश्च विचारान् प्राकटयताम्।